इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः अमेरिकादेशीयेन राष्ट्रपतिना जो बाइडेन इत्यमुना साकं संवादं कृतवान्। अपि च युक्रेन देशस्य स्थितिं समेत्य क्षेत्रीय वैश्विक प्रसंगेषु चर्चा जाता। वार्तालापेयं दूरभाष माध्यमेन जातास्ति। प्रधानमन्त्री भारतामेरिका देशयोः व्यापकं वैश्विक रणनीतिक सहभागित्वं प्रति राष्ट्रपतेः जो बाइडेनस्य गहन प्रतिबद्धतायै प्रशंसां कृतवान्, यत् लोकतन्त्रस्य विधेः जनानां मध्ये च सुदृढ सम्बन्धानां पारस्परिक मूल्येषु आश्रितम् अस्ति इति। उभौ नेतारौ द्विपक्षीय सम्बन्धानाम् अन्तर्गतं महत्वपूर्ण प्रगतेरपि समीक्षां कृतवन्तौ। तदनन्तरम् अनेकेषु प्रसंगेष्वपि विचाराणाम् आदान प्रदानं जातम्। झारखण्डस्य पूर्व मुख्यमन्त्री झारखण्ड मुक्ति मोर्चा दलस्य च वरिष्ठ नेता चम्पई सोरेनः अस्य मासस्य त्रिंशत् दिनांके रांची नगरे भारतीय जनता पार्टीति दले सम्मिलितो भविष्यति। अस्याः वार्तायाः घोषणा असम राज्यस्य मुख्यमन्त्रिणा हेमन्त बिस्वा शर्मा इत्यनेन सामाजिक संचार पटले कृता। श्रीसोरेनः श्रीशर्मा इत्यनेन सह ह्यः नवदिल्ल्यां केन्द्रीय गृहमन्त्रिणा अमितशाहेन संवादं कृतवान्। ध्येयं वर्तते यत् साम्प्रतिके समये चम्पई सोरेनः झामुमो इत्यस्य दले अपमानस्य आरोपम् ख्यापितवान् आसीत्। छत्तीसगढ़स्य बीजापुर जनपदे ह्यः पञ्चविंशतिः माओवादिनः आत्मसमर्पणं कृतवन्तः। एते माओवादिनः जनपदस्य आरक्षि अधीक्षकस्य सीआरपीएफ इत्याख्यस्य बलस्य उपमहानिरीक्षकस्य च पुरतः समर्पणं कृतवन्तः। अवधेयं वर्तते यत् एतेभ्यः माओवादिभ्यः आहत्य 29,00,000 रूप्यकाणां राशिः घोषितो वर्तते। आरक्षि अधीक्षकेण ख्यापितं यत् छत्तीसगढ़ प्रशासनस्य पुनर्वास नीत्याः अन्तर्गतं 25,000 रूप्यकाणि प्रदास्यन्ते। केन्द्र सर्वकारेण केन्द्रशासित प्रदेशस्य लद्दाखस्य पञ्च नूतनानि जनपदानि जनस्कर द्रास शाम नुब्रा चांगथांग च निर्मातुं निर्णयो कृतः अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य विकसितस्य समृद्धस्य च लद्दाखस्य निर्माणस्य दृष्टिः अग्रे नीत्वा केन्द्रीय गृहमन्त्री अमितशाहः ह्यः एकस्मिन् सन्देशे उक्तवान् यत् केन्द्रीयक्षेत्रे पञ्च नूतनानि मण्डलानि निर्मातुम् अयं निर्णयः निर्णीतः अस्ति। असौ अवदत् यत् लद्दाख नगरस्य जनानां कृते प्रचुर अवकाशान् प्रदातुं सर्वकारः प्रतिबद्धो वर्तते। द्वितीयं भारत सिंगापुर मन्त्रिस्तरीयं वर्तुलाकार मञ्च सम्मेलनं ह्यः सिंगापुरे समनुष्ठितम्। उभौ पक्षौ आईएसएमआर इत्यस्य अन्तर्गतम् अभिज्ञातेषु षड् स्तम्भेषु विचार विमर्शं कृतवन्तौ, येषु उन्नत विनिर्माणं सम्पर्क सौविध्यं च सम्मिलिते स्तः। उपवेशने विदेशमन्त्री एस जयशंकरः केन्द्रीय वित्तमन्त्री निर्मला सीतारामन इत्येषा सूचना प्रसारण मन्त्री अश्विनी वैष्णवः वाणिज्योद्योग मन्त्री पीयूष गोयलश्च सम्मिलिताः अभवन्। सिंगापुरस्य प्रतिनिधिमण्डलस्य नेतृत्वं सिंगापुरस्य प्रधानमन्त्री गेन किम योंग इत्यनेन कृतः। केन्द्रीय मन्त्रिभिः भारत सिंगापुर मन्त्रिस्तरीये वर्तुलाकार सम्मेलने सिंगापुरस्य प्रधानमन्त्रिणः वोंग वर्यस्य निरन्तरं कृतायाः सहभागितायाः प्रशंसा अपि कृता। इति वार्ताः।